अथ षट्षष्टितमः सर्गः तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् गतप्रभमिवादित्यम् स्वर्गस्थम् प्रेक्ष्य भूमिपम् कौसल्या बाष्पपूर्णाक्षी विविधम् शोककर्षिता उपगृह्य शिरोराज्ञः कैकेयीम् प्रत्यभाषत सकामा भव कैकेयी भुङ्क्ष्व राज्यमकण्टकम् त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणी विहाय माम् गतो रामो भर्ता च स्वर्गतो मम द्विपथे सार्थहीनेव नाहम् जीवितुमुत्सहे भर्तारम् तु परित्यज्य का स्त्री दैवतमात्मनः इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः न लुब्धो बुध्यते दोषान् किम् पाकमिव भक्षयन् कुब्जानिमित्तम् कैकेय्या राघवाणाम् कुलम् हतम् अनियोगेन युक्तेन राज्ञा रामम् विवासितम् सभार्यम् जनकः श्रुत्वा परितप्स्यत्यहम् यथा समामनाथाम् विधवान्नाद्य जानाति धार्मिकः रामः कमलपत्राक्षो जीवन्नाशमितो गतः विदेहराजस्य सुता तथा चारु तपस्विनी दुःखस्यानुचिता दुःखम् वने पर्युद्विजिष्यति न दताम् भीमघोषाणाम् निशासु मृगपक्षिणाम् निशम्यमाना सन्त्रस्ता राघवम् संश्रयिष्यति वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् सोऽपि शोकसमाविष्टो नूनम् त्यक्ष्यति जीवितम् साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् व्यपनिन्युः सुदुःखार्ताम् कौसल्याम् व्यावहारिकाः तैलद्रोण्याम् तदामात्याः संवेश्य जगतीपतिम् राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् न तु सङ्कालनम् राज्ञो विना पुत्रेण मन्त्रिणः सर्वज्ञाः कर्तुमीशुस्ते ततो रक्षन्ति भूमिपम् तैलद्रोण्याम् शायितन्तम् सचिवैस्तु नराधिपम् हामृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् बाहूनुच्छ्रित्य कृपणा नेत्रप्रस्रवणैर्मुखैः रुदत्य शोकसन्तप्ताः कृपणम् पर्यदेवयन् हा महाराज रामेण सन्ततम् प्रियवादिना विहीना सत्यसन्धेन किमर्थम् विजहासिनः कैकेय्यादुष्टभावाया राघवेण विवर्जिताः कथम् सपत्न्या वत्स्यामः समीपे विधवा वयम् स हि नाथः स चास्माकम् तव च प्रभुरात्मवान् वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् त्वया तेन च वीरेण विना व्यसनमोहिताः कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः यया च राजा रामश्च लक्ष्मणश्च महाबलः सीतया सह सन्त्यक्ताः साकमन्यम् न हास्यति ताबाष्पेण च संवीताः शोकेन विपुलेन च यचेष्टन्त निरानन्दा राघवस्य वरस्त्रियः निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता पुरी नाराजतायोध्याहीना राज्ञा महात्मना बाष्पपर्याकुलजनाहाहा भूतकुलाङ्गना शून्यचत्वरवेश्मान्ता नवभ्राज यथा पुरम् गते तु शोकात्रिदिवम् नराधिपे महीतलस्था सुनृपाङ्गनासु च निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनीह्युपस्थिता ऋते तु पुत्राद्दहनम् महीपतेर्नारोचयंस्ते सुहृदः समागताः इतीव तस्मिञ्छयनेऽन्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् गतप्रभाद्यौरिव भास्करम् विना व्यपेतनक्षत्रगणेव शर्वरी पुरीबभासे रहिता महात्मना कण्ठास्त्रकण्ठाकुलमार्गचत्वरा नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम् तदा नगर्याम् नरदेव सङ्क्षयेव भूपुरार्ता न च शर्मलेभिरे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्षष्टितमः सर्गः।